नमस्सर्वेभ्यः अद्य कोविदवर्गस्य एकचत्वारिंशः पाठः सेप्टेम्बर् मासस्य सप्तविंशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मिनमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो व्याकरणभागे समासानां तद्धितानां च अध्ययनं वयं कृतवन्तः समासेषु समासप्रभेदाः प्रत्येकं समासस्य नियमाः उदाहरणानि च ज्ञातानि तद्धितेषु मुख्यानां तद्धितान्तानां परिचयः प्राप्तः अपत्यार्थकाः तद्धिताः भवन्ति पुत्रः पुत्री इत्यर्थे दाशरथिः पार्वती इत्यादयः भावार्थकतद्धिताः तत्र त्रयः प्रत्ययाः य त्व तल् अथवा ता माधुर्यं मधुरत्वं मधुरता इत्यादि दृष्टाः सम्बन्धार्थकतद्धिताः तत्र ऐन्द्रः ऐन्द्री ऐन्द्रम् इति मदीयः मदीया मदीयम् इति वा प्रत्ययद्वयं तस्य रूपाणि दृष्टानि मत्वर्थकप्रत्ययाः तत्र मतुप् इत्येव प्रत्ययः अस्ति धनवत् बुद्धिमत् इति द्वेधा रूपं भवति लिङ्गत्रये रूपाणि ज्ञातानि अदन्तशब्देभ्यः ह्रस्वकारान्तेभ्यः इन् प्रत्ययः अपि भवति यत्र नकारान्तः गुणिन् धनिन् इत्यादि शब्दाः निर्मीयन्ते ततः अतिशयार्थकौ तरप् तमप् प्रत्ययौ ज्ञातौ द्वयोः अतिशये तरप् प्रत्ययः बहूनाम् अतिशये तमप् प्रत्ययश्च भवति तद्धितान्त अव्ययानि गतवर्गे दृष्टानि सामान्यतः सर्वनामशब्देभ्यः एतानि अव्ययानि भवन्ति कदाचित्तु अन्येभ्यः अपि तः तसिल् पञ्चम्यर्थे प्रत्ययः सर्वेभ्यः शब्देभ्यः भवति गृहतः नगरतः ग्रामतः इत्यादि अन्यानि अव्ययानि यथा दा तदा यदा इदानीं तदानीम् इति एवं यथा तथा सर्वथा इति प्रकारार्थे त्रल् प्रत्ययः सप्तम्यर्थे तत्र अत्र सर्वत्र इत्यादि शब्दाः ज्ञाताः विशिष्ट अर्थेषु केचन शब्दाः अपि अस्माभिः दृष्टाः व्याकरणम् अधीते वेत्ति वा वैयाकरणः तेनैव क्रमेण नैयायिकः मीमांसकः पौराणिकः वैदिकः इत्यादयः शब्दाः तत्र भवः इत्यर्थे राष्ट्रे भवः राष्ट्रियः इत्यादि भवार्थे अपि बहवः शब्दाः अस्माभिः दृष्टाः इदानीम् अग्रिमः व्याकरणभागः अग्रे लघु लघु परिचयः केषाञ्चित् शब्दानां दीयते तत्र तेषां विषये किञ्चित् जानीमः तत्र निजन्ताः इति अग्रिमः विषयः अस्ति आदौ कानिचन वाक्यानि पठित्वा अवगच्छामः अश्वाः धावन्ति सारथिः अश्वान् धावयति द हार्सेस् रन् द चारियटेर् मेक्स् द हार्सेस् रन् सो धावयति धावति धावयति रामः वनं गच्छति कैकेयी रामं वनं गमयति गच्छति गमयति Rama goes to the forest. Kaikeyi makes or causes Rama to go to the forest. Shishuhu shete. Mata shishum shayayati. Shete nidram karoti ityarthaha. So the child sleeps. Mother makes the child sleep. Puts the child to sleep. Chhatraha uttarani likhanti. Guruhu छात्रैः उत्तराणि लेखयति लिखन्ति लेखयति स्टूडेंट्स राइट द आंसर्स द टीचर मेक्स द स्टूडेंट्स टू राइट द आंसर्स एते शब्दाः धावयति, गमयति, शाययति, लेखयति इत्यादयः शब्दाः निजन्ताः इति कथ्यन्ते. निजन्तः नाम कः तर्हि इति चेत्, व्याकरणरीत्या पश्यामः चेत् सुबन्तः, तिङन्तः इत्यादि वयं जानीमः. यत्र अन्ते सुप् इति प्रत्ययाः भवन्ति ते सुबन्ताः, येषाम् अन्ते तिङ् इति प्रत्ययाः भवन्ति ते तिङन्ताः. एवमेव अत्र निच् इति कश्चित् प्रत्ययः अस्ति, सः प्रत्ययः येषाम् अन्ते भवति ते शब्दाः निजन्ताः इति उच्यन्ते. तत्र णिच् इति पूर्णः प्रत्ययः, किन्तु तत्र आदौ यः णकारः अन्ते यः चकारः तेषां लोपः भवति. इत् इति काचित् संज्ञा विद्यते व्याकरणे, तेषां लोपः भवति, तत्र इ इत्येव श्रूयते. सो तत्र णकारः, इकारः, चकारः इति त्रयः वर्णाः सन्ति, किन्तु रूपे इ इत्येव अन्ते श्रूयते, सः एव णिचः इकारः. यत्र शब्दस्य अन्ते णिच् इति प्रत्ययः श्रूयते सः शब्दः निजन्तः इति कथ्यते. यथा चोरि, पाठि, कारि इत्यादि अस्ति. अतः सर्वत्र यः इ इति अस्ति सः णिचः इ. अतः वस्तुतः अयमेव निजन्तः, चोरि, पाठि, कारि इत्यादयः निजन्ताः. सामान्यतः वयं प्रयोगं यदा पश्यामः तत्र अय इति भागः श्रूयते, तदाधारेण एव सामान्यतः वयं निजन्तस्य ज्ञानं प्राप्नुमः. वि ऐडेण्टिफै निजन्तस् एस्पेशलि एट् द बेसिक् स्टेजस् बै लुकिङ्ग् एट् दट् अय. सो पाठयति, चोरयति, कारयति, नाशयति इत्यादि. वस्तुतः अय इस् नाट् निच्, तत्र इ चोरि इति णिच् निजन्तः. ततः अ शप् इति प्रत्ययः भवति, अस्य इकारस्य गुणः भवति यान्तवान्तादेशसन्धौ अय इति जायते. सो द अय इस् नाट् डिरेक्ट्लि णिच्, इट् इस् जनरेटेड् बै कम्बैनिङ्ग् णिच् यूजुवलि वित् शप् आर् समटैम्स् वित् इडागम, बट् एस् एन् ऐडेण्टिफैयिङ्ग् फ्याक्टर् इट् इस् commonly identified by this aya. Kebhyah ayam nich pratyayah bhavati. So to what do we add this nich pratyaya? Matra dashama ganasya dhatubhyah swarthe nich iti pratyayah bhavati. Dhatunam dasha ganah santi iti vayam janimah. भू इत्यादयः ये धातवः सन्ति तत्र दशगणाः सन्ति, भ्वादिः, यदादिः, जुहोत्यादिः इत्यादि. गणानां मध्ये भेदः विकरणप्रत्ययस्य भवति. यथा प्रथमगणे यदि धातुः अस्ति तर्हि अ इति मध्ये श्रूयते, पठ इति धातुः, ति इति प्रत्ययः, मध्ये अ इति भवति. तदेव द्वितीयगणं पश्यामः चेत् सः प्रत्ययः न श्रूयते, अस् ति अस्ति मध्ये किमपि न दृश्यते. चतुर्थगणे पश्यामः चेत् य इति श्रूयते, नृत् ति मध्ये नृत् य ति नृत्यति. एवं विकरणप्रत्ययस्य आधारेण दश धातुगणाः सन्ति, तत्र अन्तिमः गणः चुरादिगणः इति उच्यते. प्रथमः धातुः चुर् धातुः, तेभ्यः धातुभ्यः स्वार्थे णिच् प्रत्ययः भवति. स्वार्थे इत्युक्ते अत्र चोरयति, गणयति, कथयति, क्षालयति इत्यादि वयं जानीमः. इट् डस् नाट् हाव् द कासल् मीनिङ्ग्. चोरयति इस् नाट् टु मेक् सम्बडी स्टील्, इट् इस् टु स्टील्. गणयति इस् टु कौण्ट्. कथयति इस् टु नरेट्. क्षालयति इस् टु वाश्. धातोः यः अर्थः स एव अर्थः निजन्तादपि भवति, अतः स्वार्थे णिच् प्रत्ययः इति उच्यते. सो यु डु नाट् फैण्ड् द फार्म्स् आफ् दीस् धातुस् विथौट् द णिच्.
So you don't have just churu with the ti pratyaya. You always add the nich. Anantarameva chorayati ganayati ityadi rupani bhavanti. Saha swarthe nich iti kathyate. Sarvebhyaha dhatubhyaha preranarthe api nich bhavati. Swarthe nich tu kevalam dashamaganasya dhatubhyaha bhavati. Around 500 dhatus, only those which belong to the 10th gana. Kintu sarvebhyaha dhatubhyaha nich bhavati preranarthe. Prerana is to make somebody do, to cause somebody to do something. That is in general referred to as prerana. It could be by order, it could be by request, it could be by blackmail, whatever it is, to make somebody else to do something is called prerana. Saha nich preranarthaka nich iti kathyate. Etadeva vayam idani madau drishtavantaha. Pathati pathayati. Gacchati gamayati. Khadati khadayati. Nayati nayayati. Evam shuddha dhatoho rupam asti. Nijanta rupam api bhavati. Arthabhedaha bhavati. So patati is to read. Pathayati is to make somebody read. Gacchati is to go. Gamayati is to make somebody else go. Ityadi. Evam nijantaha dvividhaha bhavanti. Swarthika nijantaha. Preranarthaka nijantaha. Iti. Idani masmin pathe. Asmi parikshartham asmabhihi preranarthaka nijantanam eva adhyayanam kriyate. Etohi swarthika nijantaha purvam eva adhitaha. When we have been studying the dhatus, tatraiva bahunam dashamaganasya dhatunam adhyayanam kritam. Idanim to preranarthaka nijantanam vishaye kinchid jnatavyam asti. Etadekam smartavyam nijantaha dvividhaha tatra arthe eva bhedaha natu rupe. Saha swarthika nijantaha va bhavatu, preranarthaka nijantaha va bhavatu, rupam samanam bhavati. So that aya you see or the pattern is always the same. Whatever, whether it is swarthe nich or preranarthe nich, arthaha, preranarupaha arthaha yatra asti, saha preranarthaka nijantaha ityuchyate. Tatra etebhyaha dhatubhyaha dashamaganasya dhatubhyaha api preranarthe nich bhavati. You can also make somebody to steal. Tatra rupam tu chorayati ityeva. So you won't hear a double nich. Yadi swarth chorayati iti swarthe nich asti tasmat punaha nich kriyate chedapi rupe nich dvayam na shruyate. So there is a Vyakarana rule which prevents that. So, saha svayam chorayati athava anyam chorayitum prerayati ubhayathapi chorayati ityeva rupam bhavati. You cannot make out the difference. The context will tell you and the other words will tell you whether he is doing it himself or making somebody else to do it. Avagatam. केचन प्रश्नाः सन्ति चुरु धातोः प्रेरणार्थरूपं किम् इति प्रथमः प्रश्नः अधुना एव उत्तरं दत्तं दशमगणस्य धातुभ्यः स्वार्थे प्रेरणार्थे उभयथापि समानं रूपं भवति निच् केवलं सकर्मकधातुभ्यः वा इति प्रश्नः न सर्वेभ्यः धातुभ्यः निच् भवति इट् इस् नाट् ओन्ली for sakarmakas. Sarvebhyaha dhatubhyaha prerananarthe nich bhavati. Ha. Anyaha prashnaha. Atmanepadi kriyapadam bhavati chet. Yatkimva bhavatu. Mula dhatuhu atmanepadiva bhavatu parasmaipadiva bhavatu. Nijantaha ubhayapadinaha. So you can both say pathayati pathayate. Pathati iti dhatuhu parasmaipadi. Kintu yada nich pratyayasya yojanam bhavati nijantaha ubhayapadinaha. Ataha pathayati pathayate ubhayathapi rupam bhavati samanyataha vai asmabhihi parasmaipadasya prayogaha eva kriyate. So they are normally used very rarely. We use Atmanepadi, but Nijantas are by default Ubhayapadins. Mooladhatuho Atmanepadi Vandate Ityasti Chedapi Vandayati Vandayate Ubhayam Bhavati. So Sarvada Sarva Dhat Mooladhatuho Kim Padam Ityetat Atra Na Pariganyate Nichyojyate Chet Nijantaha Ubhayapadi Bhavati. Agre Gachamaha Prathamaha Abhyasaha Kanichana Vakyani Deyante Atra Nijanta Rupam Abhignaya. I am Swarthikaha Nichva Preranarthaka Nichva Iti Vaktavyam. So that is depending on the meaning, you have to identify whether it is a Swarthika Nich or a Preranarthaka Nich. So before we go to that, Vijay Shri Bhagini, Prashna Hastiva. I'm not able to hear you. If you are muted, you should be able to hear actually, because the muted is only means that we cannot hear you, but if you are unable to listen, please log out and log in again. That may resolve the issue. Okay. Ha. Idanim ye vaktum ichanti kripaya hastam unnayantu.
No, but me, I have a doubt. Hello? Hari Om? Hari Om?
Yeah.
I have a doubt, but Hari
Om?
Hari Om? Like in Dadatu, you had a Nich Pratyaya, and to that you had a Tigandam to get Patayati. Am I right?
Correct. Yes.
So just the Nich Pratyaya doesn't give Patayati.
No. Yes, we will see that in the next slide. We will see that.
Yes. Dhanyavada.
Correct. Rao Mahodaya.
Yeah. Krishnaha Navanitam Choreti. Churbatu Swarbhe Shur Prashni plus Shep.
Samyak. Swarthe Pratyaya Chorayati. So Krishna steals butter. So Chorayati iti Swarthe Nich. Samyak. Mata Putriya Annam Pachayati. Shrimati Bhagini.
Preranarthakaha. Pachayati.
Pachayati iti preranarthe nich. Mother makes the daughter cook rice. Ataha atra pachayati iti preranarthe nich. Hastipakaha gajena kadalipalam khadayati. Sudha Bhagini. Na Shruyate. Vasanta Bhagini.
Khadayati Preranartha.
Samyak. Khadayati iti Preranarthe Nich. So Hastipakaha, the Mahut is called Hastipakaha, makes the elephant eat a plantain, banana. So kadali phalam. Ataha khadayati iti preranarthe nich. Mahadevan Mahode. Pita kopena putram tadayati.
Pita kopena putram tadayati. स्वार्थेन च
ताडयति इत्यत्र स्वार्थे निच् सो ही बीट्स ही इज नॉट मेकिंग समबडी एल्स टू बीट ही बीट्स हिमसेल्फ पिता अतः ताडयति इति स्वार्थे निच् निर्मला भगिनी गृहिणी गृहं मार्जयति
मार्जयति स्वार्थे
निच् सम्यक् गृहं द वुमन् क्लीन्स् द हौस् अतः अत्र स्वार्थे निच् सम्यक् महालक्ष्मी भगिनी गृहिणी सेविकया गृहं मार्जयति
प्रेरणार्थे निच् गृहिणी सेविकया गृहं मार्जयति
अत्र प्रेरणार्थे निच् अत्र मार्जयति इति यथा उक्तम् तत्र स्वार्थे प्रेरणार्थे रूपं समानम् वाक्यं दृष्ट्वा वयं ज्ञातुं शक्नुमः सो शी क्लीन्स् हर्सेल्फ शी मेक्स् द मेड क्लीन द हाउस अतः एकत्र प्रेरणार्थे निच् भवति एकत्र स्वार्थे निच् भवति अग्रे गच्छामः तत्र निजन्तानां रूपं कथं भवति इति किञ्चित् जानीमः इत्युक्ते निजन्तस्य रूपम् अत्र परीक्षादृष्ट्या यदा पश्यामः प्रामुख्येन रूपं रिक्तस्थानं दीयते तत्र निजन्तेन पूरणीयम् अथवा निजन्तानां भिन्नभिन्नरूपाणि लेखनीयानि तादृशाः एव प्रश्नाः परीक्षादृष्ट्या भवन्ति अतः आदौ तद्विषये जानीमः अन्येपि विषयाः सन्ति तत् अग्रे पश्यामः इदानीं सामान्यतः निजन्त यदा मया इदानीं निजन्तः इति उच्यते प्रेरणार्थकनिजन्तानां विषये एव अत्र अवधानम् अधिकं भवति स्मार्थेणिच् पूर्वं यथा उक्तं धातुरूपेषु अधीतं धातुः दशमगणे अस्ति वा इति कथं ज्ञायते इति एकः प्रश्नः अस्ति तत्तु धातुपाठेन एव ज्ञातुं शक्यते सो देर् इस् नो वे टु नो विच् गण अधातु बिलोङ्ग्स् टु अदर् देन् द धातुपाठ आर् द डिक्शनरीस् आफ् कोर्स् यः कोऽपि कोशः अथवा धातुपाठः तेनैव ज्ञातुं शक्यते कस्मिन् गणे धातुः अस्ति इति प्रेरणार्थकनिदन्तानां विषये तु गणज्ञानं न अपेक्ष्यते यः कोऽपि गणः भवतु प्रेरणार्थे णिच् भवति रूपं समानरीत्या उत्पद्यते सो द मोस्ट् Correct way of knowing the forms of nijantas is through the vyakarana. Kinchit vyakarana jnanam asti chet, ajantanam vriddhihi, adupadhanam vriddhihi, tevam rupena, exactly jnatum shakyate. Idanim tu, some clues for the normal forms katham bhavanti iti, ataha this will only be 90% correct. विशेषाः भवन्त्येव तेषां ज्ञानार्थं व्याकरणं सूत्राणि एव आश्रयणीयानि सामान्यतः कथं भवति आदौ अकारः अस्ति चेत् आकारः भवति यथा पठति पाठयति नयति नाययति अय इति एकं भवति तत्र आदौ आकारः समथिङ्ग् सिमिलर् टु द आदिवृद्धि इन् तद्धितस् बट् दिस् इस् नाट् द आदिवृद्धि किन्तु अकारस्य आकारः भवति धरति धारयति पतति पातयति हसति हासयति स्मरति स्मारयति अतः यत्र आदौ प्रथमः स्वरः अकारः भवति तत्र सामान्यतः आकारः रूपे भवति यदि प्रथमः स्वरः इ उ ऋ इति भवति तत्र क्रमशः ए ओ अर् इति भवति गुणः इति व्याकरणपरिभाषायां कथ्यते इकारः अस्ति चेत् एकारः उकारः अस्ति चेत् ओकारः ऋकारः अस्ति चेत् अर् इति भवति. लिखति लेखयति सो इ ए. क्षिपति क्षेपयति. तुष्यति तोषयति सो तु बिकम्स तो. क्रुध्यति क्रोधयति टु मेक somebody एंग्री टु मेक somebody बी प्लीज्ड इत्यादि अर्थः अर्थः सामान्यतः ज्ञायते. मूलधातोः अर्थः ज्ञायते चेत् तत्र प्रेरणा टु कॉज somebody एल्स टु डू दट दट इज द मीनिंग ऑफ निच. निजन्तस्य अर्थः पृथक् ज्ञातव्यः नास्ति. मूलधातोः प्रेरणारूपः अर्थः एव निजन्तेन बोध्यते. सो नृत्यति नर्तयति ऋकारस्य अर्. कृषति कर्षयति. एवम् इ उ ऋ एतेषाम् ए ओ अर् इति भवति. अयं सामान्यनियमः. अपवादाः सन्ति. अन्यस्वराः सन्ति चेत् अ इ उ ऋ एतत् दृष्टवन्तः. अन्यस्वराः सन्ति चेत् सामान्यतः भेदः न भवति. खादति खादयति. क्रीडति क्रीडयति. केवलम् अय इति तत्र निजन्तस्य अंशः एव श्रूयते. तत्र आदौ स्वरे भेदः न भवति. धावति धावयति. प्राप्नोति प्रापयति. तत्र प्र आप् आकारः अस्ति. आपयति प्रापयति इत्येव. कूर्दते कूर्दयति. कूर्दते इस् टु जम्प्. कूर्दयति टु मेक् somebody जम्प्. वेपते टु शिवर. वेपयति टु मेक् somebody शिवर. एवम् ईकारः आकारः ऊकारः एकारः. नो चेञ्ज्. सो दिस् इस् द जेनरल् रूल् फार् डिरैविङ्ग् निजन्तास्. अकारस्य आकारः ई उ ऋ एतेषां गुणः नाम एकारः ओकारः अथवा अर्. अन्यस्वराणां किमपि न इति सामान्यनियमः. एतदाधारेण एकम् अभ्यासं कुर्मः. निजन्तरूपं वक्तव्यम्. कोऽपि वदति वा? चम्बकलक्ष्मी, यू हैव टु अनम्यूट योरसेल्फ.
चलति चालयति.
चलति चालयति. धरति
धारयति.
धारयति. बुध्यते
बोध्यते. बोध्यते
बोधयति. बुध् धातुः अय. बोध अय.
बोधपदम् परस्मैपदं मैडम्.
एनी पद यु विल् हाव् बोत् एक्चुअलि. चालयति चालयते. धारयति धारयते. बोधयति बोधयते. इर्रेस्पेक्टिव् आफ् द पद आफ् द ओरिजिनल् धातु निजन्तास् आर् आल्वेस् उभयपदिन् बट् वि यूस् परस्मैपद मोस्ट् फ्रीक्वेण्ट्ली. सो ऐ यूस् ओन्ली परस्मैपद बिकास् द बुक् यूसस् ओन्ली परस्मैपद आफ् निजन्तास्. धन्यवादाः. अग्रे जयश्री भगिनी.
प्रीणाति प्रीणयति.
प्रीणयति. प्रीणाति इस् टु बी प्लीस्ड्. प्रीणयति इस् टु मेक् somebody एल्स् प्लीस्ड्. खिद्यते
खिद्यते. खेदयति
खेदयति. सम्यक्. सो खिद्यते इस् टु बी साड्. खेदयति इस् टु मेक् somebody एल्स् साड्.
रोदयति
रोदयति. टु मेक् somebody क्रै. सो चालयति धारयति बोधयति प्रीणयति खेदयति रोदयति. एते सामान्यरूपाणि भवन्ति. अग्रे केचन विशेषाः. यत्र आकारान्तः धातुः अस्ति. धातुः आकारान्तः चेत् सि फस्ट् थिङ्ग् यु हव् टु रिमेम्बर् इस् to derive this from the latlakara form is slightly misleading. You should actually ideally go back to the dhatu. Only when you know the original dhatu you can get at the nijanta form correctly. So for akaranta dhatus, we take the original dhatu and add a pakara. Pakarasya agamaha bhavati. Atha dadati ityasti tatra mula dhatuhu da. Da p. Dapayati. Dadati dapayati. So don't derive it from the ready form of latlakara. Always actually it is safe to go back to the original dhatu. Eto hi mula dhatoho eva nich pratyayaha yojyate. Tatha eva rupam siddhyati. But in majority of the cases, it's okay. I mean, etadrisha samanya sthaleshu latlakara rupam drishtva api nijantasya rupam vaktum shakyate. Yatra visheshaha asti tatra maya idanim uchyate. Yatra akarantaha dhatuhu tatra pakaragamaha bhavati dhatuhu anantaram pakarasya yojanam karaniyam. So, da dhatuhu dapayati. Janati tatra dhatuhu jnya iti dhatuhu jnyapayati iti rupam. So to make somebody know is jnyapayati. Yati gachati ityarthaha yapayati. Bhati to shine, bhapayati to make something shine. Gayati atra ekaha ye kinchit vyakaranam jananti se janiyuhu atra dhatuhu vastutaha gai iti dhatuhu kintu ejantanam dhatunam yatra dhatuhu a o i au etadantaha bhavati tatra akaradeshaha bhavati yadi bhavantaha kridanta vargam patitavantaha maya purvam kridanta vargaha kaschit chalitaha tatra bahudha drishtam. Where a dhatu ends in a, o, i, au, it is normally converted to a. So after it is converted to a, we add the pakara. So gayati, gai becomes ga and then gapayati. Similarly, dhyayati, dhyai becomes dhya and then dhyapayati. Evam akaranta dhatu nam. Pakarah bhavati. Samanyaha. Ayamapi samanya niyamaha. Anantaram yathamaya drishtam, yathamaya uktam, mula dhatuhu drashtavyaha, yatra dhatau bhedahasti. Samanyataha vayam janimaha. Pashyati. Tatra pashyayati iti na bhavati. Kimartham dhatuhu kaha drishdhatuhu darshayati. So pashyati. Mula dhatuhu drish, where the dhatu is totally different from what we hear in latlakara, you should always be careful about using the dhatu itself, not the latlakara form. So, pashyati, darshayati, tishthati, the dhatu is tha, sthapayati. So, akarahasti, pakaragamaha bhavati, sthapayati. So, sthapayati is the nijanta form of tishthati. That itself bhavah na janiho eto hi sakshat sambandhana bhavati. Kintu tishthati ityasya nijanta rupam sthapayati. Pibati atra vishesha hasti pa iti dhatuhu. Kintu papayati iti na bhavati payayati. Tatra vishesha niyama hasti ataha pibati payayati to make somebody drink. Yachati. Yachati ityatra dhatuhu da. Ataha dapayati. Ityeva bhavati. Yachati does not have its own, as in a different nijanta form. Da iti dhatuhu. Tatrapi dapayati. Ityeva. Jighrati. Jighrati to smell. Ghra dhatuhu. Ghrapayati. Ichati. Ichati ityatra ish iti dhatuhu. Ikarasya ekaraha bhavati, eshayati, darshayati, sthapayati, payayati, dati, ghrapayati, eshayati. So, kinchit abhyasam kurmaha chet nyayate, kintu mula dhatuhu chintaniyaha, dhatuhu kaha iti drishtva chintaniyam. Atra kechana prashnaha sandhi. Preenati प्रेरणयति इति किमर्थं न भवति? ह्रस्व इकारस्य एव एकारः, सो प्रेरयति न भवति, ह्रस्व इकारस्य एकारः, ह्रस्व उकारस्य ओकारः, ह्रस्व ऋकारस्य अर् इति. आर् आल् अकारान्तास् फ्रम् द जुहोत्यादिगण? नास्ति किल. अत्र पाधातुः घ्राधातुः च भवादिगणे अस्ति, स्थाधातुरपि भवादिगणे, या धातुः द्वितीयगणे अस्ति अदादिगणे, स्ना वा इत्यादि धातवः द्वितीयगणे. सो द गण इस् नाट् फिक्स्ड् अण्ड् इट् डस् नाट् म्याटर् फार् निजन्तस्, इट् डस् नाट् म्याटर् विच् गण इट् इस् इन्. ओके, अनन्तरम् अन्ये केचन विशेषनियमाः अपि सन्ति. केषुचित् स्थलेषु अकारः आदौ अस्ति चेदपि आकारत्वेन न परिणमते. द अकार इस् नाट् कन्वर्टेड् टु आकार इन् णिजन्त. प्रसिद्धाः केचन धातवः सन्ति, गच्छति गम धातुः, किन्तु गामयति इति न भवति, गमयति. गच्छति गमयति, द अकार इस् नाट् कन्वर्टेड् टु आकार. रमते रमयति, टु कन्सोल् सम्बडि, टु मेक् देम् हेपी इत्यर्थः. नमति नमयति, सो गमयति रमयति नमयति. अत्र विशिष्य सूत्रमस्ति, नियमः. सो एतेषां धातूनां गम नम रम कम वम यम आचम एतेषां धातूनां दीर्घः न भवति इत्येव नियमः अस्ति. तत्र प्रसिद्धाः एते त्रयः धातवः. अत्र गमयति रमयति नमयति स्मर्तव्यम्. देर् इस् नो वे अदर् देन् एक्चुलि रिमेम्बरिङ्ग् द फार्म् आर् बीङ्ग् फेमिलियर् वित् द फार्म्. एषः एकः अंशः. द्वितीयः, यत्र वन्दते वन्दयति, कम्पते कम्पयति, लम्बते लम्बयति. अत्रापि आदौ अकारः अस्ति, किन्तु अग्रे संयुक्ताक्षरः अस्ति. ओके, सो इन् सच् केसस् आल्सो अग्रे द्वितीयवर्णः तत्र संयोगः अस्ति चेदपि अकारस्य आकारः न भवति. दोस् हु आर् फेमिलियर् वित् द व्याकरण टर्मिनालजि, द आकार इस् फार् द उपधा. यदा उपधायाम् अकारः अस्ति तदा तस्य वृद्धिः भवति. वेन् देर् आर् टू लेटर्स् इन् द धातु फालोयिङ्ग् द अकार, द अ इस् नाट् इन् उपधा, देर् फोर् देर् इस् नो वृद्धि. दट् इस् द टेक्निकल् वे आफ् लुकिङ्ग् एट् इट्. ये व्याकरणं न जानन्ति इदानीं चिन्तां न कुर्वन्तु. व्याकरणम् इत्युक्ते पाणिनीयं व्याकरणं न जानन्ति, चिन्ता मास्तु. अत्र संयोगः अस्ति चेत् न भवति इति स्मर्तुं शक्यते. फार् नौ यु केन् रियलैज् दट्. सो अकारानन्तरं संयोगः अस्ति चेत् तत्र दीर्घ आकारः न भवति, तथैव अकारः अकारः एव भवति, वन्दयति कम्पयति लम्बयति इत्यादि भवति. अग्रे गच्छामः. सो वी हेव् सीन् सम् स्पेशल् रूल्स्. आकारान्तानां पकारागमः भवति. केषुचित् मूलधातुः इत्युक्ते यत्र धातुरूपं विशिष्टं भवति, वेन् द फार्म् आफ् द धातु इस् वेरि मच् डिफरेण्ट् फ्रम् द ओरिजिनल् धातु, यु हेव् टु गेट् द निजन्त फ्रम् द ओरिजिनल् धातु, नाट् फ्रम् द हर्ड् फार्म् लैक् पश्यति तिष्ठति एट्सेट्रा. कुत्रचित् अकारस्य आकारः न भवति. सो दीस् जनरल् रूल्स् शुड् बि इनफ् फार् नौ. फार् दिस् लेवेल् देर् आर् त्री जनरल् रूल्स् फार् कन्वर्षन्. अकारस्य आकारः भवति, इ उ ऋ एतेषां गुणः ए ओ अर् इति भवति, अन्येषां स्वराणां किमपि न भवति इति त्रयः सामान्यनियमाः. आकारान्तधातूनां पकारः भवति, यत्र धात्वादेशः अस्ति दृष्टरूपं बहु भिन्नम् अस्ति तत्र मूलधातोः आधारेण निजन्तरूपं वक्तव्यम्. अकारस्य आकारः क्वचित् न भवति, गम नम रम इत्यादीनां न भवति, अकारानन्तरं संयोगः अस्ति चेत् न भवति इति किञ्चित् विशेषनियमाः. नौ स्पेसिफिक् रूपास् आफ् सम् आफ् द कामन् धातुस् तत्तु तथैव ज्ञातव्यम्. यथा शृणोति इत्यस्ति श्रू धातुः, श्रावयति सो शृणोति इत्यस्य श्रावयति इति रूपम्, क्रीणाति क्रापयति इति रूपम्, स्नाति तत्र स्नापयति स्नपयति इति रूपद्वयमपि अस्ति, विशेषनियमः अस्ति अतः स्नपयति स्नापयति इति उभयम् अस्ति. बिभेति तत्र भी धातुः, तत्र रूपत्रयं भवति सो भाययति भापयति भीषयति. देर् इस् अ स्लैट् डिफरेन्स् इन् वेर् वि यूस् इट् बट् रूपत्रयम् अस्ति. सो दीस् आर् सम् स्पेशल् केसस्. ओके सो एतद् रूपं पश्यन्ति चेत् निजन्तरूपं तत्र अर्थः ज्ञायते चेत् अलम्. सो दट् मच् इस् इनफ् फार् दिस् स्टेज्. गच्छता कालेन कथम् एतेषां रूपाणां सिद्धिः भवति इति ज्ञातुं शक्यते. सो अत्र अभ्यासः अस्ति, ततः पूर्वं प्रश्नाः सन्ति चेत् एकः एव प्रश्नः पुनः पुनः पृच्छ्यते बहुभिः, निजन्ताः सर्वे परस्मैपदिनः वा इति. न, निजन्ताः सर्वे उभयपदिनः, किन्तु प्रयोगे परस्मैपदानामेव प्रयोगः अधिकः. All nijantas, especially all prerananthaka nijantas are ubhayapadins. But normally we don't see the prayoga of atmanepadi. Especially for the exam you will not have atmanepadis, and therefore I have used by default parasmaipada everywhere. Okay. Astu, idanim वाक्यं दीयते तत्र निजन्तरूपेण रिक्तस्थानं पूरणीयं. केवलस्य धातोः वाक्यमस्ति, पुत्रः ददाति पिता पुत्रेण, तत्र निजन्तं किं भवेत् इति वक्तव्यं. ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु. उमादेवी भगिनि
नमस्कार. नमस्कार.
श्रूयते श्रूयते.
पिता पुत्रेण दापयति.
पिता पुत्रेण दापयति. सम्यक्, धन्यवादाः. सो द सन् गिव्स्, फादर् मेक्स् द सन् गिव्स्. श्रीमती भगिनी यानं तिष्ठति, सः यानं
स्थापयति.
स्थापयति सो टु पार्क् ओर् टु मेक् इट् स्टाण्ड् इत्यर्थः. राहुल् महोदय.
वृक्षाः नमन्ति, फलानि वृक्षान् नामयन्ति. नामयति
नमयन्ति. गम नम रम एतेषां दीर्घः न भवति अतः नमयन्ति. सो द ट्रीस् बेण्ड् आर् बो. सो द फ्रूट्स् मेक् द ट्रीस् बेण्ड्. नमयन्ति. सम्यक्, अग्रे पद्मनाभन् महोदय. शाखाः कम्पन्ते, वायुः शाखाः
कम्पयति.
Kampayati. So the branches shake, wind makes the branches shake.
I have a question.
Sorry. Yeah. I saw your question. I'll answer it. It is about this one, right? Tritiya and Dvitiya.
Yes. It will come. Another question too.
yes.
Budhyate is Karmani Prayoga. Bhodayati is Budhyate.
Budhyate is not Karmani.
Ah.
चतुर्थगण.
So you have the ya there, it is not takarmani. Budhyate is to know. Bodhayati is nijanta. Both of them are kartari.
Okay.
Budhyate tatra chaturtha ganasya dhatushu visheshya atmane pade saha kleshaha. You will not be able to distinguish whether it is kartari or karmani, because in both cases you hear the ya. But chhatraha budhyante ityukte, the students understand ityartha. So it is active.
Okay, thank you.
Yeah. Kishore Mohanaya. Kishore Mohanaya. Vayam vartam shrunumaha. Saha vartam.
Shridhatu, so shrunayami.
Shravayati. No, because he is making us listen to the this one. So we listen to the news. He is making us listen to the news. So saha shravayati. So if it was aham, then it could have been shravayami.
So
aham vartam shravayami. See, it's possible.
See, question, kidrisham tvam mama rodayami. Is that correct? See, you are making me cry. So, will that be rodayami?
Rodayami. You are making me cry will be, as in, if I'm saying I will make somebody cry, then it will be rodayami. Aham shishum rodayami. I make the child cry.
Okay. But if you are making me cry, then it will also be rodayami, right?
No. Tvam mam rodayasi.
Oh, okay. Now I understand. So it depends on who is the actor.
Who is making. Yeah. We will see more of that in the next class. So it is who is making that cry. So if it is I am making somebody cry, it will be aham rodayami. If you are making somebody cry, it will be rodayasi, tvam rodayasi.
Dhanyavad.
Okay. Astu. Anti maha prashnaha. Mahalakshmi. Bhagini.
भवन्तः पश्यन्तु अहं दृश्यामि
दर्शयामि अहं दर्शयामि यू सी ऐ विल् शो दर्शयामि सम्यक् अहं दर्शयामि ऐ विल् शो एवं निजन्तानां सामान्यरूपाणि ज्ञातानि अत्र अयं विशेषः पूर्वं केनचित् पृष्टम् Nijantaha vastutaha kevalam dhatuhu bhavati. If you add just the nich, what you get is only a dhatu. You cannot use a pure nijanta. Kevalasya nijantasya prayogaha na bhavati. Yatha kevalasya pathadhatuhu. Prayogaha na bhavati. You cannot use only pat. You have to use it in some form, either as a tinganta or as a kridanta. Evameva nijanta shabdanam api kevalanam prayogaha na bhavati. Nijantaha dhatuhu tavadeva. So nijanta is a dhatu. Sarveshu lakareshu rupani bhavanti, kridanta rupani api bhavanti. Tesham eva prayogaha kartum shakyate. Etavata vayam latlakare prayogam drishtavantaha. Evam sarve lakaraha bhavanti. Dasha lakaraha api bhavanti. Kartari karmani bhave sarveshu prayogeshu bhavanti. Kridanta rupani api bhavanti. Whatever forms you have for pathati, you can have a corresponding form for pathayati.
ओके यथा केवल धातुः पठ इत्यस्ति पठति अपठत पठिष्यति देयर इज अ टाइपिंग एरर हियर दिस इज पठिष्यति सो वर्तमानकाले भूतकाले भविष्यत्काले पाठि इति निजन्त धातुः मया उक्तम् इ इति णिच् प्रत्ययस्य भागः पाठ इति धातु भागः केवल धातुः पठ पाठि इति निजन्त धातुः अत्र पुनः पाठयति अपाठयत् पाठयिष्यति वर्तमाने भूते भविष्यति अन्येषु अपि लकारेषु सर्वेषु लकारेषु रूपं भवति पठतु पठेत् पाठयतु पाठयेत् लोट् लकारे विधिलिङ्ग् लकारे कृदन्तरूपाणि तव्य अनीयर् सो पठनीयं पठितव्यं पाठनीयं पाठयितव्यम् पठितवान् पठितः इति क्तवतुक्त पाठितवान् पाठितः इति पुनः क्तवतुक्त सो क्त्वा ल्यप्तुमुन् पठित्वा प्रपठ्य पठितुम् सो पाठयित्वा प्रपाठ्य पाठयितुम् एवम् एतेषु किमपि रूपम् एव प्रयोक्तुं शक्यते केवलस्य निजन्तस्य प्रयोगः न भवति लकारे तिङन्तरूपं वा कृदन्तरूपं वा वयं प्रयोक्तुं शक्नुमः सो द सेकेण्ड् आस्पेक्ट् फार् नोयिङ्ग् फार् द एक्साम् इस् दीस् फार्म्स् पर्टिक्युलर्ली इन् दीस् वर्तमाने लट् लङ् लृट् लोट् एतानि रूपाणि एतेषां प्रमुखकृदन्तानां तव्यतनीयर् क्तवतुक्त क्त्वा ल्यप् तुमुन् एतेषां रूपाणि ज्ञातव्यानि इति द्वितीयः अंशः परीक्षादृष्ट्या अस्ति अभ्यासं कुर्मः अत्र पाठयति इति लट्लकारस्य रूपं दत्तमस्ति भिन्नानि रूपाणि कथं भवन्ति इति वक्तव्यम् लोट्लकारे किं भवति इत्यादि श्रीमती भगिनी
लोट् पाठयतु
पाठयतु
लङ् अपाठयत्
अपाठयत् सम्यक्
ऋट् पाठिष्यति
पाठयिष्यति
पाठयिष्यति तव्य पाठयितव्यम्
सम्यक्
तुमुन् पाठयितुम् त्वा पाठयित्वा अनीयर् पाठनीयम् तव तु पाठितवान्
पाठितवती सम्यक् बहु उत्तमम् अत्र एषः अंशः यु हियर् दिस् अय एव्रिवेर् एक्सेप्ट् अनियर् अण्ड् क्तवतु अत्र अय इति न श्रूयते यु जस्ट् हेव् द पाठ एण्ड् देन् अनीय पाठ इतवान् पाठितवान् इडागमः भवति सो एतयोः प्रत्यययोः अय इति न भवति सो अत्र कदाचित् पाठितव्यं वा पाठयितव्यं वा इत्यादि सन्देहः भवति सो तव्य तुमुन् इट् विल् बि अय सो पाठयितव्यं पाठयितुं पाठयित्वा पाठयिष्यति सर्वत्र अय इति भवति एक्सेप्ट् अनीयर् अण्ड् क्तवतु सो पाठनीयं पाठितवान् तत्र अय इति न भवति सर्वत्र अयमेव नियमः कारयति इति अग्रिमः धातुः राहुल् महोदय
कारयति लोट्लकारे कारयतु
कारयतु
लङ्लकारे अकारयत् लृट्लकारे कारयिष्यति तव्यत् कारयितव्यम् तुमुन् कारयितुम् त्वा कारयित्वा अनियर् कारणीयम्
सम्यक्। तत्र रेफः अस्ति इत्यतः णत्वं भवति कारणीयम्, करणीयं कारणीयम्।
तव तु कारितवान् कारितवती।
कारितवान् कारितवती, सम्यक्, धन्यवादाः। अग्रे नलिनी भगिनी।
प्रदर्शयति दृष्टयतु,
तदेव प्रदर्शय इति समानम् अत्र निजन्त प्रदर्शयतु,
प्रदर्शयतु लङ् लकारे आ प्रदर्शयत्।
हा, अत्र यथा सामान्यधातूनाम् अस्ति
प्रादर्शकारः,
सम्यक्,
प्रादर्शयत्
उपसर्गात् अनन्तरम् अकारः भवति, अतः प्रादर्शयत् उत्तमम्।
दृश्यति,
दर्शयति इत्यस्य लृट् लकारे
दर्शयिष्यति, प्रदर्शय
सम्यक्, प्रदर्शयिष्यति उत्तमं, दर्शयिष्यति उपसर्गः केवलम् अस्ति तावदेव।
प्रदर्शितव्यं,
प्रदर्शयितव्यं,
प्रदर्शयितुं
सम्यक्,
प्रदर्शयित्वा
उपसर्गः अस्ति चेत् प्रदर्श्य त्वा प्रत्ययस्य ल्यप् भवति।
प्रदर्शनीयं,
सम्यक्, प्रदर्शनीयं,
प्रदर्शिता, प्रदर्शितं, प्रदर्शिति, दर्शति,
प्रदर्शितवान् क्तवतु, अतः प्रदर्शितवान्,
प्रदर्शितवान्, प्रदर्शितवती,
सम्यक्, प्रदर्शितवान्, प्रदर्शितवती। अत्र प्रदर्शयितवान् इति न भवति सर्वत्र, सो फार् क्तवतु अण्ड् अनियर् अय इति न भवति, स्मरन्तु। निवेदयति चम्पकलक्ष्मी, यु हव् टु अन्म्यूट् युर् सेल्फ्। निर्मला भगिनी,
लोट् निवेदयतु, अनिवेदयत्,
अकारः उपसर्गात् अनन्तरम्, नि प्लस्
नि
सन्धिं कुर्मः चेत्
न्यवेदयत्,
सम्यक्, न्यवेदयत्, न्यवेदयदमे आत्मा दृष्टा सीतेति तत्त्वतः, रामायणे अस्ति प्रसिद्धा, न्यवेदयत्,
न्यवेदयत्, निवेदयिष्यति, निवेदयितव्यं, निवेदयितुं, निवेदयित्वा,
उपसर्गः अस्ति चेत्
निवेद्य,
सम्यक्,
निवेदनीयं, निवेदितवान्, निवेदितवती,
उत्तमं, निवेदितवान्, निवेदितवती। सो यदा उपसर्गः अस्ति तत्र उभयत्र किञ्चित् अवधानं, लङ्लकारे अकारः कुत्र भवति, उपसर्गात् अनन्तरं भवति, एवमेव क्त्वा न भवति ल्यप् भवति त्वा प्रत्ययस्य स्थाने ल्यप् भवति बहुत्र अत्र अस्माभिः दोषाः क्रियन्ते समर्पयित्वा इति तत्र समर्प्य निवेद्य इत्यादि ल्यपन्तस्य प्रयोगः कर्तव्यः अद्य अत्र स्थगयामः अद्य निजन्तस्य सामान्यपरिचयः प्राप्तः कः अर्थः स्वार्थे कुत्रचित् दशमगणस्य धातुभ्यः णिच् भवति सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् भवति तत्र रूपाणि कथं भवन्ति इति सामान्यनियमाः केचन विशेषनियमाः अस्माभिः ज्ञाताः भिन्नेषु लकारेषु कृत्प्रत्ययेषु रूपं कथं भवति इति अपि ज्ञातं परीक्षादृष्ट्या एतावता अलम् दिस् इस् आल् यू हाव् फार् द एक्साम् यु जस्ट् हाव् टु फिल् द करेक्ट् निजन्त फार्म्स् किन्तु निजन्तानां प्रयोगे एकः प्रमुखः अंशः अस्ति सम्बडि आस्क्ड् तत्र कुत्रचित् उदाहरणेषु दृष्टं यथा छात्राः पठन्ति छात्राः पाठं पठन्ति अध्यापकः छात्रान् पाठं पाठयति इति वाक्यं छात्राः लिखन्ति उत्तरं लिखन्ति अध्यापकः छात्रैः उत्तरं लेखयति इति वाक्यं तदेव शुद्धं सो छात्रान् पाठयति छात्रैः लेखयति कुत्र द्वितीया भवति कुत्र तृतीया भवति इति सर्वदा भ्रमः भवति सो इट् इस् अ डिफिकल्ट् इट्स् अ थिङ्ग् विच् इस् नाट् पासिबल् टु टीच् एट् अ वेरि बेसिक् लेवल् इत्युक्ते वित् अवाय्डिङ्ग् द सूत्रस् तत्र निर्णयः कठिनः इट् इस् वेरि डिफिकल्ट् टु summarize and tell where to use dvitiya where to use tritiya tatra niyamah asti saha niyamah na jnayate chet tatra doshaah bhavanti so you cannot make a complete sentence with nijanta without knowing the rules okay atah agrima varge paathayami pariksha drishtya na jnana drishtya कथं निर्णयः कथं तत्तु धातुम् आश्रित्य भवति सो देर् आर् सर्टन् केटगरीस् आफ् धातुस् एण्ड् सर्टन् स्पेसिफिक् धातुस् विच् गेट् द्वितीया एण्ड् देर् आर् सम् अदर्स् विच् गेट् तृतीया सो कुत्र द्वितीया भवति कुत्र तृतीया भवति इति अग्रिमवर्गे वयं पठामः ज्ञानार्थं पठामः यथा यथा अभ्यासं कुर्मः तथा वाक्यनिर्माणं शक्यते नो चेत् पूर्णस्य वाक्यस्य निर्माणमेव न शक्यते यु केनाट् क्रियेट् अ कम्प्लीट् सेण्टेन्स् वित् निजन्त अन्लेस् यु हाव् क्लारिटि ऐ मीन् यु मैट् गेट् इट् रैट् बै चान्स् निश्चयेन शुद्धं वा अशुद्धं वा इति तु वक्तुं न शक्यते अतः तद्विषये वयम् अग्रिमवर्गे पठामः अग्रिमशुक्रवासरे अन्ये केऽपि प्रश्नाः सन्ति वा अयमेकः अंशः अस्ति अस्यापि अग्रिमवर्गे वयं तदपि किञ्चित् पठामः फार् कम्पन्ते इस् निजन्त कम्पयन्ते आर् कम्पयते इट् डिपेण्ड्स् आन् हू इस् मेकिङ्ग् इट् शेक् सी वि सेड् शाखाः कम्पन्ते विच् मीन्स् द ब्राञ्चस् शेक् द बहुवचन इस् बिकास् द ब्राञ्चस् आर् इन् बहुवचन नौ हू इस् मेकिङ्ग् इट् शेक् इफ् वि से वायुः शाखाः कम्पयते इफ् द विण्ड् इस् मेकिङ्ग् इट् शेक् द विण्ड् इस् ओन्लि वन् अतः कम्पयते इत्येव भवति तत्र बहुवचनम् अस्ति चेत् से हैपोथेटिकलि इफ् यु आर् सेयिङ्ग् वायवः कम्पयन्ते सो द वचन अण्ड् द पुरुष विल् डिपेण्ड् आन् दट् कर्ता द वन् हू इस् मेकिङ्ग् इट् ओके सो अग्रिमवर्गे एतदपि पठनीयमस्ति निजन्तेषु सर्वदा कर्तृद्वयं भवति वन् इस् द पर्सन् हू इस् आक्चुलि डूयिङ्ग् द अदर् इस् द पर्सन् हू इस् मेकिङ्ग् टु डू सो कर्तृद्वयं भवति तत्र प्रधानः कर्ता यः अस्ति तस्य सङ्ख्यां वचनं पुरुषम् आश्रित्य निजन्तस्य वचनं पुरुषं भवति ओके सो वि विल् स्टडि दट् इन् द नेक्स्ट् क्लास् एनि अदर् क्वश्चन्स् अन्ये केऽपि प्रश्नाः सन्ति चेत् हस्तम् उन्नयन्तु, नो चेत् अत्र समापयामः. उमादेवी भगिनी, प्रश्नः अस्ति वा? रामानुजं महोदय,
नमस्ते. Do we also have karmani prayoga with these dhatus?
Yes, yes.
We have for gamyate, for the karmani prayoga, for gam. Then how do we do for the with the nich pratyaya?
For gam you will not know the difference. Tatra karmani api gamyate itev bhavati. But if it is a pathati, so pathayati pathyate.
Pathyate.
Adhyapikaya nijantaah pathyante.
Okay.
There you can make a difference. Make out the difference. Karmani prayogaha bhavati. Just like anything you can do for a normal dhatu, you can also do for a nijanta.
Okay. I also have another question on the previous lessons that we learned. Okay. Mm-hmm. This is on taddidas. It's not quite that what we talked about. I just want to know, are they also taddidas, and what does it mean? Like balaha and then balakaha. We saw vatsa, and then I was reading something, and then it came across bhakta vatsalaha, vatsala. Okay. Are they also taddidas, from bala to balakaha, vatsa to vatsalaha?
Yes, bala to balaka, yes. Vatsa to vatsala also, it looks like taddhita. I'll check out the exact this one. The dakka is a very popular one. One of the meanings is swarthe, that is, bala is balaka, there is no difference. But ka is also used in some senses. Say vrikshakaha means a small tree. So
okay.
It is used to indicate a small variety, or it is used to indicate an unknown variety, and such things. So ka pratyaya is a tadhita pratyaya. It can be added to most words in swartha, but also in some of the special meanings.
Okay. The other one, as I said, I was reading, and then I came across this word,
vatsa vatsalaha. It's affectionate. It is probably derived from vatsa. So it should be a taddhita. I'll let you know the exact this one.
Okay. Thank you.
Yes. So, hetuka, there was another question last week. Yes, I missed answering it. Hetuka, it is, this ka is probably the ka of bahuvrihi. Because only hetuka, it is possible to use it. If it is used, then probably there is some special meaning. That is, it's an agnyata hetu, that is an unknown cause or a trivial cause. If it is used only on hetu without a samasa, it is possible. It is also possible that ka is on a bahuvrihi, because most of the mahuvrihi samasas have that kap pratyaya. Agnyata hetu kam means that whose cause is unknown. Agnyataha hetuhu yasya saha agnyata hetukaha ityadi. So that is also a possibility. There, even that ka is a taddhita pratyaya. Okay, so all this ka pratyayas are taddhitas. They can either be added to just words or to bahuvrihi samasa. Okay. ओके, विजय राघवन महोदय, प्रश्नः अस्ति वा?
नमस्ते, केन यू प्लीज एक्सप्लेन त्वा प्रत्यया इन निजन्त रूप प्लीज. आई एम कंफ्यूज्ड ऑन
त्वा डजंट हैव एनी स्पेशल थिंग्स. इफ इट्स ओनली अ धातु लाइक से पाठ, इट विल बी पाठयित्वा. यू विल स्टिल हैव दैट पाठयित्वा कारयित्वा एटसेट्रा. So it will be that ayi vittva, ayitva. Okay, patayitva, karayitva, gamayitva, bodhayitva. If there is an upasarga, instead of the tva, you have the lyap. Okay, so pradarshya. So pradarshya and only the ya. Instead of tva, you have ya. So pradarshya, vijnapya, nivedya. So you just add the ya to the dhatu ending. Okay, so darshya,
darshya.
Yeah, only if there is an upasarga. Yeah.
Thank you. Thank you.
Yeah. Any other question? Okay. Koshe vatsalaha lach pratyaha iti diyate. Yeah. So, should be this one. Kadhita. Dhanyavadaha bhagini. So, we will stop here. Shvaha Raghuvamsham pathamaha. Gururev gatir gurumev bhaje gurunaiva sahasmi namo gurave na guroh paramam shishurasmi guror matirasti gurau mamapahi guro. Dhanyavadaha.